प्रते एवत्र ब्रह्मणे गातुरे एत्तपो अच्छा मनसो न प्रयुक्ते महीम मित्रस्य वरुणस्य धासिम् रजसेरीरधासु भृक्तिम् अध्वरे दवो हविष्मन्तो हि भूताच्छाप इतोषदेरुषन्दः अभजाश्चष्टे अरुणस्व वर्णस्तमास्य ध्वमोर्मिमद्यासु हस्ताः अध्वरे जवोप इता समुद्रमपान्नपातम् हविषा यजध्वम् स वो ददधोर्मिमद्यासु वो तन्तस्मै सोमम् मधुमन्दम् सुनोत यो अनिध्वोदीतजदप्स्वा अन्तर्यम् विप्रा स ईळते अध्वरेषु अपान्नपान्मधुमदेरपोदायाभिरिन्द्रो वावृधे वीर्याय याभिः स मोदते हर्षते च कल्याणीभिरजुमतिभिर्नमर्याः ता अध्वर्यो अपो अच्छापरे हि यदा सिञ्चा ओषधेभिः पुनीतात् एवेद्योने जुमतजो नमन्तजदे मुषन्नुषतीरेत्यच्छ सञ्जानते मनसा सञ्जगित्रे ध्वर्यवो धिषणापश्च देवीः यो वो भृताभ्यो अकृणोदु लोकम् यो वो मह्या अभिषस्ते रमुञ्जत तस्मा इन्द्राजमधमन्तमोर्मिन्दे ममातनम् प्रहिणोतनापः प्रास्मै एहिनोतमधमन्तमोर्मिङ्गर्भो यो वस्सिन्धवो मध्व उत्साह घृतपृष्ठमेड्यमध्वरेष्वापो रेपते शृणुताहवम् मे तम् सिन्धवो मत्सरमिन्द्रपानमोर्म्यम् प्रहे तज उभे इयर्ते मदच्युतमौषानन्नभोजाम्बरित्रिदन्तुम् विचरन्तमुत्सम् आपरवृततीरधनुद्विधारा गोषु युधो न निजमञ्चरन्तीः ऋषे चरित्रेर्भवनस्य पत्नेरपावन्तस्व समृधः स योनीः हिनोता नो अध्वरन्ते भज्या हिनोत ब्रह्म सनजे धनानाम् ऋतस्य योगे विश्यद्धबोध सृष्टेवरेर्भोदनास्मभ्यमापः आपो रेवतीः क्षयथा हिव स्वः कृतम् च भद्रम् बिभ्रथामृतम् च राजश्च स्थस्वपत्यस्य पत्नीः सरस्वती तद्गृणते वजोधात् प्रतिजदापो अदृश्रमाजतेर्घृतम् वजांसि बिभ्रतेर्मधोनि अध्वर्यभर्मनसा संविदाना इन्द्राजसोमम् सुषतम् भरन्तीः एमा अग्मन्रेवतेर्जेवधन्या अध्वर्यवः सातजता सखाजः निबर्हिषि धत्तन सोम्या सोपान्नत्रा संविधाना स एनाः आत्मन्नाप उषतेर्बर्हिरेदन्याध्वरे असदन्ते भजन्तीः अध्वर्यवः सुरतेन्द्राजसोममभो जवः सुषका देवजज्या